नमोवः सर्वेषाम् अस्माकं भाषितसंस्कृतवर्गे सर्वेषां सुस्वागतम्। वयं प्रार्थनां कुर्मः। वक्रतुण्डमहाकाय सूर्यकोटितमप्रभा, निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। सरस्वती नमस्तुभ्यं, वरदे कामरूपिणी, विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा। अस्तु, वयं द्वितीयदीक्षायां तत्र प्रथमभाग इति पुस्तकात् इदानीं प्रथमस्तबके तृतीयपाठे स्मः। अत्र विषयः अस्ति अजन्तनपुंसकलिङ्गपदानि इति। अत्र अजन्तेषु इकारान्त उकारान्त नपुंसकलिङ्गपदानि भवन्ति। उदाहरणार्थम् अक्षि इति ह्रस्व इकारान्तः नपुंसकलिङ्गः, अक्षिशब्दः, तस्य प्रथमावृत्तिरूपाणि सन्ति अक्षि, अक्षिणी, अक्षीणि इति। एवम् अम्बु इति उकारान्तः नपुंसकलिङ्गः अम्बुशब्दः, जलम् इति अर्थः, अम्बु अम्बुनि अम्बूनि इति भवति, वारि वारिणि वारिणि, एवं मधु मधुनि मधूनि इति इकारान्त उकारान्तानां रूपाणि भवन्ति। इदानीं वयं एतावता मया न उक्तम्, अत्र पञ्चचत्वारिंशत् 45 इत्यस्मिन् पुटे पुष्पं पुष्पं विचिम्बीत इति शीर्षकमस्ति, ततः पठेम अद्य। अत्र यस्य कस्यापि सन्देहः संशयः अस्ति वा एतावता यत् अस्माभिः पठितम्?
आं महोदय, अस्ति। एकचत्वारिंशत् पुटसङ्ख्या। अक्षि सुन्दरम् अस्ति, सुन्दरम् अस्ति,
अक्षि सुन्दरम् अस्ति,
अत्र पश्यतु सुन्दरम,
न सुन्दरम् अत्र मकारस्य अधोभागे रेखा अस्ति,
नास्ति महोदय पुस्तके कृष्णमपि नास्ति,
न अत्र मुद्रणम् एवम् अस्ति, यतोहि अत्र बोल्ड् नास्ति खलु, बोल्ड् नार्मल् अत्र पुस्तके मुद्रणं सम्यक् नास्ति तावदेव, मुद्रणदोषः अस्ति इति न अङ्गीकरोमि, यतोहि अग्रे अपि कृष्णम इति अस्ति,
तद्
आदि आघातित आघातितम अस्ति, तादृशं मकारस्य अधोभागे रेखा अस्ति,
कुत्रचित्
तादृशं
तत्र समीचीनमस्ति मधुरम्,
अत्र किञ्चित् बृहत् अपि अस्ति, तत्र फाण्ट् सैज़् किञ्चित् बृहत् अस्ति, बोल्ड् अस्ति, भवितुमर्हति अत्र।
ओके, अच्छा, अन्यमपि एकः अस्ति महोदय, हनु चीक्, स्त्रीलिङ्गे अपि अस्ति पुल्लिङ्गे अपि अस्ति वा?
भवति, केचन शब्दाः एवं भवति।
ओके, बिकास् पुस्तके अस्ति, पुल्लिङ्गे अपि हनुः अस्ति, स्त्रीलिङ्गे अपि शब्दः अस्ति अनुः, but the dictionary has shabdakosha is showing as neuter gender, I think, and the feminine gender.
atra kim kartavyam tada kosham drishtavyam,
kosham eva drishtavyam,
veta brahma asti te tatra spashtadya militam bhavyam,
तत्र नपुंसकलिङ्ग एण्ड् स्त्रीलिङ्ग अस्ति महोदय.
अणु इत्यस्य नपुंसकलिङ्गः पुल्लिङ्गः स्त्रीलिङ्गः त्रयमपि अस्तु. अत्र तादृशम् अस्ति चेत् एकक्षणम्.
ओके धन्यवादः महोदय.
महोदय पङ्गु पङ्गु इति पुल्लिङ्गे अपि स्त्रीलिङ्गे अपि
द्रष्टुः पङ्गुः वा
पङ्गुः पङ्गु पुल्लिङ्गे अपि स्त्रीलिङ्गे अपि दृष्टम् अस्माकं पुस्तके.
एवं वा. पङ्गु पङ्गु उकारन्तः इति वा पङ्गु इति ह्रस्व उकारन्तः. एवं वा
दृष्टम् अस्माकं पुस्तके.
अणु स्त्रीलिङ्गे अस्ति चेत् एकक्षणम् अणु पुल्लिङ्ग पुल्लिङ्गे अस्ति चेत् तत् चीक् इत्यस्मिन् अर्थे अस्ति कपोलः इति कपोलः इति कपालो इति अस्मिन् अर्थे अणु
पुल्लिङ्गे
भवति पुल्लिङ्गे. अत्र स्त्रीलिङ्गे यत् अस्ति तस्य एव अञ्जनकेशाख्यद्रव्यम् इति अस्ति. अञ्जनम् इत्युक्ते अत्र तादृशं यत् अस्ति तदेव श्रीलिङ्गे भवति. ड्रग् इत्यस्मिन् अस्ति अस्ति ए कैण्ड् आफ् ड्रग् ड्रग् इत्युक्ते अत्र काजल् इति वदामः तदपि एकविध पुरातनकाले तादृशमेव अस्ति खलु.
Oh. So what is the vakyam here, the, what it says? Anu. Okay, it doesn't give any vakyam. It just says Anu. Okay.
Pullinge, napunsakalinge, pi... Tadha pi...
Pustike nasi, koshe asti. Shabda koshe asti na, tatra asti. Pustike nasi.
पुल्लिङ्गे स्त्रीलिङ्गे इत्येव लिखितं कल्पद्रुमायाम् एवमेव अस्ति. पुल्लिङ्गे स्त्रीलिङ्गे एव अस्ति. नपुंसकलिङ्गे कुत्र भवेत्
शब्दकोश शब्दकोश दट् इस् स्पोकन् संस्कृत स्पोकन् संस्कृत.
तत्र अहम् अधिकं किञ्चित् यत्र अस्माकम् अर्थबोधः झटिति ज्ञातव्यं तत्र तदा स्पोकन् संस्कृत् इत्यस्मिन् जालपुटे पश्येम. इदानीं कस्यचित् पदस्य रूपाणि कानि तस्य प्रयोगः कथं भवति इत्यस्मिन् विषये वयं कोशा डाट् संस्कृत् डाट् इत्यस्मिन् इत्यस्मात् एव द्रष्टव्यम्. अत्र बहवः कोशाः सन्ति. अत्र कल्पद्रुमं वाचस्पत्यम् इत्यादि
समीचीनं वा महोदय? बहु समीचीनमस्ति.
तत्र बहु उपयोगकरमस्ति.
बहु उपयोगम्
अन्यमपि अस्ति मम पार्श्वे. तत्र बहवः निकण्ठवः सन्ति. तस्य लिङ्क् न प्राप्तम् अनन्तरं प्रेषयामि.
धन्यवादः महोदय.
पङ्गु इत्यस्मिन् पङ्गु 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 इति ऊकारन्तः अपि श्रूयते इति उक्तवान् महोदय.
हा महोदय एकादशपुटे
अत्र पङ्गुः इत्यस्मिन् अर्थे ऊकारन्तः अस्ति इति कोशे नास्ति. उकारः एव अस्ति.
पङ्गु किल
अस्ति वा कोशे अस्ति वा
कोशे न जानामि महोदय.
पङ्गू इति ऊकारः
बसन्मध्ये श्री स्त्रीलिङ्गस्य पुटसङ्ख्या वदतु एकादश
षड्विंशति 26
एषा वृद्धा पङ्गुः
पङ्गुः इति समीचीनं इति प्रायः द्विवचने अस्ति
तत्र वाक्यं तु एषा वृद्धा पङ्गुः
पङ्गुः इति अस्ति पङ्गुः इति निगण्डुषु न दृश्यते यतोहि अत्र
अत्र पुल्लिङ्गे रत्व अस्ति उकार अस्ति पङ्गु अत्र दीर्घ
स्त्रीलिङ्ग भवतु पुल्लिङ्ग भवतु नपुंसकलिङ्ग भवतु त्रिषु स्थलेषु उकारः एव ह्रस्व उकार एव
ह्रस्व नास्ति महोदय स्त्रीलिङ्गे दीर्घ अस्ति
एक अत्र पङ्ग्वी इति भवितुमर्हति पङ्गूः इति कथं भवति इति पङ्ग्वी अत्र पङ्ग्वी इति भवितुमर्हति पङ्गूः इति प्रायः दोषः एव पङ्गूः इत्यपि अस्ति सत्यं पङ्गू इति स्त्रीलिङ्गे भवितुमर्हति अस्ति कुत्रचित् एवमस्ति पङ्गु इत्यस्य पङ्ग पङ्ग्वी इत्यपि अस्ति पङ्गू इत्यपि श्रीलिङ्गे अपि अस्ति मोनियर् विलियम्स् इत्यस्मिन् तत्र पङ्गू इति लिखितम् अत्र बेन् ऊकारान्तः अपि भवितुमर्हति ऊकारान्तः अपि भवितुमर्हति पुल्लिङ्गे अपि भवति श्रीलिङ्गे अपि भवति
ह्रस्व उकारः
सत्यं दीर्घ उकारः स्त्रीलिङ्गे केवलं
स्त्रीलिङ्गे
तु कल्पद्रुमायां पुल्लिङ्गः एव लिखितमस्ति चून् सर्वत्र वाचस्पत्यं तत्रापि एवमेव ओङ् प्रायः तत् तदापि अस्तु भवतु
इट्स् पङ्गु इन् पेज् 11
अस्तु तदेव उक्तवान् खलु इकारान्तः उकारान्तः पुल्लिङ्गे स्त्रीलिङ्गे ऊकारान्तः स्त्रीलिङ्गे
धन्यवादः महोदय
राम महोदय आगतवान् वा शिवर्मा महोदय अस्ति वा सुन्दरेशन् महोदय
शिवर्मा महोदय यात्रां करोति
सुन्दरेशन्
शिवर्मा महोदय सुन्दरेशन् महोदय
अस्तु
नमस्कारः
महोदय अस्तु इदानीं प्रभावती भगिनी भवती पठितुम् इच्छति वा
महोदय नमस्कारः
नमस्कारः भगिनि किञ्चित् सम्यक् पठतु
अजन्तनपुंसकलिङ्गः शब्दाः पुष्पं पुष्पं विचिन्वीत उद्यानं नाम तत् यत्र वृक्षाः लताश्च विशिष्टयोजनया रोपिताः वर्धिताः च सन्ति संस्कृतभाषायाम् उद्यानम् इत्यस्य कृते उपवनम् इति शब्दः अपि प्रसिद्धः अस्ति पुष्पोद्यानं फलो ध्यानम् इति च मुख्यतया द्विधम् उद्यानं भवति.
द्विविधम्
उद्यानं भवति. कानिचन उद्यानानि एतादृशानि अपि भवन्ति यत्र पुष्पवृक्षाः फलवृक्षाश्चेति उभयविधाः
वृक्षाः भवन्ति.
उभयविधाः वृक्षाः भवन्ति. अस्माकं विद्यालयस्य प्राङ्गणे एकं तादृशम् उद्यानं वर्धते यत्र फलवृक्षेषु बक्वफलानि, पुष्पवृक्षेषु च सुन्दराणि पुष्पाणि शोभते. पक्षिणः वृक्षे.
अस्तु भगिनि, धन्यवादः. पर्याप्तं.
धन्यवादः.
समीचीनम्. अस्तु, पुष्पं पुष्पं चिन्वीत. चिन्वीत चिन्वीत इत्युक्ते चिन्ज् चयने इति धातुः अस्ति खलु. चयने, चयनं करोति चेत् चिनोति. चिन्वीत इति तस्य विधिलिङ्ग् अस्ति. वयं न पठितवन्तः एतावता लिङ्ग्लकारः. अत्र तस्य अर्थः अस्ति शाल् इत्यस्मिन्, शाल् टेक्, शाल् कलेक्ट् इत्यस्मिन् अर्थे अस्ति. चिन्वीत विचिनी विचिन्वीत चिन्वीत विचिन्वीत समानार्थः अस्ति. पुष्पं पुष्पम् इत्युक्ते प्रत्येकं पुष्पम् इत्यस्मिन् अर्थे पुष्पं पुष्पं चिन्वीत. पुष्पाणि सङ्ग्रहीतुं शक्नुयात् इत्यस्मिन्, ग्रहीतुं शक्नुयात् इति अर्थः भवति. अस्तु, उद्यानं नाम तद्यत्र वृक्षाः, लताश्च, लताः च लताश्च विशिष्टयोजनया, विशिष्टयोजनया, योजनया इत्युक्ते योजना इत्युक्ते मी प्राजेक्ट्, योजना इत्युक्ते प्राजेक्ट् इति वदामः सामान्यतया. टु टु स्पेशल् अरेञ्ज्मेण्ट् इति
स्पेशल्
तस्मिन् अर्थे भवति. विशिष्टयोजनया रोपिताः, रोपिताः प्लाण्टेड् वर्धिताः ग्रोन् इत्यस्मिन् अर्थे च सन्ति. अस्तु, संस्कृतभाषायां, संस्कृतभाषायाम् इति एकपदं भवेत्, संस्कृतभाषायाम् इति एकपदम्. उद्यानम् इत्यस्य कृते उपवनम् इति शब्दः अपि प्रसिद्धः अस्ति. उद्यानम् इत्यस्य पर्यायपदमस्ति उपवनम् इति. उपवनं पुष्पोद्यानं फलोद्यानम् इति च मुख्यतया द्विविधम् उद्यानं भवति, पुष्पोद्यानं फलोद्यानं. कानिचन उद्यानानि एतादृशानि अपि भवितुं भवन्ति यत्र पुष्पवृक्षाः फलवृक्षाः च, फलवृक्षाः च इति फलवृक्षाश्चेति इति उभयविधाः वृक्षाः भवन्ति. इत्युक्ते उभयद्वयमपि भवति, पुष्पवृक्षाः अपि भवन्ति, फलवृक्षाः अपि भवन्ति एकस्मिन्नेव उद्याने. अस्माकं विद्यालयस्य प्राङ्गणे एकं तादृशम् उद्यानं वर्तते यत्र फलवृक्षेषु पक्वफलानि, पुष्पवृक्षेषु च सुन्दराणि पुष्पाणि शोभन्ते. अस्तु, प्रबन्धकर्ता वदति इदानीं तस्य विद्यालयस्य समीपे एतादृशप्राङ्गणम् अस्ति यत्र पुष्पवृक्षाः फलवृक्षाः अपि सन्ति, तेषु पक्वफलानि सन्ति, अपि च सुन्दराणि पुष्पाणि अपि वर्तन्ते शोभन्ते वर्तन्ते इति भवति. अस्तु इदानीं अस्तु उद्याने किं किं भवति गीता वेङ्कट भगिनी. अस्ति वा गीता भगिनी
आगतवती
वदतु भगिनि किं किं वर्धिताः भवन्ति अथवा रोपिताः भवन्ति.
पुष्पोद्यानं फलोद्यानम् इति च मुख्यतया द्विधं उद्यानं भवति.
उद्यानं द्विविधं भवति वा इति न पृष्टम्. अत्र मम प्रश्नः अस्ति उद्याने किं किं रोपिताः भवन्ति वर्धिताः भवन्ति. इदानीं भवती उद्यानस्य समीपे एव अस्ति पार्श्वे एव अस्ति इति अहं भावयामि यतोहि चटकानां तत्र मधुरध्वाणः श्रूयते. किं भगिनि न अवगतं वा न श्रूयते एव. अस्तु अनन्तरं पृच्छामि. भवती किञ्चित् लाग् औट् कृत्वा आगच्छतु भगिनि. अस्तु गीता देवानन्द भगिनि के के आरोपिताः भवन्ति अथवा वर्धिताः भवन्ति गीता देवानन्द भगिनि. सापि न किम् अभवत् तस्या ध्वनिः अपि न श्रूयते. अस्तु लागौट् कृत्वा आगच्छन्तु ये यस्य ध्वनिः न श्रूयते कृपया. अस्तु तर्हि असीमा भगिनी भवति वदतु.
उद्याने पुष्पवृक्षाः फलवृक्षाः च रोपिताः वर्धिताः च सन्ति.
अस्तु लताश्च वृक्षाश्च लताश्च विशिष्ट वृक्षाश्च लताश्च रोपिताः पुष्पवृक्षाः फलवृक्षाः सस्यानि रोपिताः भवन्ति इत्यपि वक्तुं शक्नुमः. उद्यानस्य पर्यायपदं किम्?
उपवनम्.
उद्यानस्य पर्यायपदम् उपमनम्. अस्तु अस्तु भगिनि वसन्त महोदय. इदानीं पुष्पोद्यानं फलोद्यानमि च मुख्यतया द्विविधम् उद्यानं भवति. एकं तत्र प्रश्नवाक्यं रचयतु महोदय.
उद्यानं कीदृशाः भवन्ति उद्यानानि कीदृशानि भवन्ति?
अत्र वाक्यं किं पुष्पोद्यानं फलोद्यानम् इति च मुख्यतया द्विविधम् उद्यानं भवति यस्य वाक्यस्य प्रश्नः वाक्यं किम्? अत्र मुख्यविषयः कः इति द्रष्टव्यं.
पुष्पोद्यानं फलोद्यानमेव मुख्य अंशाः.
तर्हि वाक्यं रचयतु.
मुख्यतया द्विविधम् उद्यानं के स्तः.
द्विविधम् उद्यानं के स्तः इति वदामः. अत्र पश्यतु, भवति इति क्रियापदम्. अत्र भवति इति क्रियापदम्. इदानीं भवतः प्रश्ने अपि तादृशमेव एव क्रियापदप्रयोगः भवेत् खलु? इदानीं मम
उद्यानपदं
द्विविधं भवति इति प्रश्नस्य कतिविधम् उद्यानं भवति. इदानीम् अहं वदामि, मुख्यतया द्विविधम् उद्यानं ते के इत्युक्ते पुष्पोद्यानं फलोद्यानं. फलोद्यानं पुष्पोद्यानम् इति अडिशनल् इन्फर्मेशन् अस्ति. इति च मुख्यतया द्विविधम् उद्यानं भवति. अत्र प्रमुखवार्ता किं? द्विविधम् उद्यानं भवति, यतोहि तत्र भवति इति क्रियापदमस्ति. तदेव तेन किं सूचितम् इत्युक्ते द्विविधम् उद्यानम् इति मम चिन्ता. अस्तु, तत्र यत् भवता कृतं तदपि समीचीनमेव. अस्तु, कानिचन कतिविधं मया तदेव द्रष्टव्यम् इदानीम्. अभ्यासेन भवति कानिचन उद्यानानि एतादृशानि अपि भवन्ति यत्र पुष्पवृक्षाः फलवृक्षाश्चेति, फलवृक्षाः चेति इति सन्ति च इति, उभयविधाः वृक्षाः भवन्ति. अस्तु, अत्र प्रश्नं, यत्र पुष्पवृक्षाः भवन्ति अत्र किमपि नास्ति, पुष्पवृक्षाः फलवृक्षाश्चेति भवन्ति भवन्ति अत्र.
महोदय,
श्रूयते श्रूयते.
महोदय, उभयविधाः बहुवचन,
उभयविधः उभयविधाः अत्र वृक्षाः इत्यस्य विशेषणम्. उभयविधाः वृक्षाः,
उभयविधाः
उभय इत्युक्ते टु टै टु इत्यस्मिन् अर्थे, उभयं बोत् बोत् इत्यस्मिन् अर्थे, टु न बोत् इत्यस्मिन् अस्ति. बोत् टैप्स् उभयविध वृक्षा इति विशेषणम्, उभयविधाः वृक्षाः.
कानिचन इत्युक्ते
कानिचन ते उद्यानानि, कानिचन इन् सम् उद्यानानि इत्यस्य विशेषणं कानिचन इति अस्ति. सम् इत्यस्य सम् उद्यानानि इत्युक्ते बहुवचनं, उद्यानशब्दस्य बहुवचनं, सम् गार्डन्स् इत्यस्मिन् इत्यर्थः. सम् गार्डन्स् एतादृशानि आर् लैक् दिस् अपि च भवन्ति, केन् बि लैक् दिस्, शाल् बि लैक् दिस्, आर् लैक् दिस्. यत्र पुष्पवृक्षाः फलवृक्षाश्चेति उभयविधाः वृक्षाः भवन्ति. अस्माकं विद्यालयस्य प्राङ्गणे एकम् तादृशम् उद्यानं वर्तते, यत्र फलवृक्षेषु पुष्पाणि शोभन्ते. अस्तु महोदय, भवतः विद्यालयस्य प्राङ्गणे कीदृशाः वृक्षाः सन्ति?
अस्माकं विद्यालयस्य प्राङ्गणे
अस्तु भवतः वृक्ष अस्तु भवतु अस्माकं
मया उक्तम्
अस्तु भवतु भवतु अस्माकम् इति दोषः नास्ति
विद्यालयस्य प्राङ्गणे एकम् उद्यानं वर्तते यत्र फलवृक्षेषु पक्वफलानि पुष्पवृक्षेषु च सुन्दराणि पुष्पाणि शोभन्ते
तर्हि भवतः विद्यालयस्य प्रा उद्याने उभयविधवृक्षाः सन्ति वा
उद्याने उभयविधाः वृक्षाः सन्ति महोदय
अस्तु तदेव उभयविधवृक्षाः आम् आम् इति सन्ति वा इति मम प्रश्नस्य उत्तरम् आम्
आम् आम्
उभयविधाः वृक्षाः सन्ति समीचीनम्
अस्तु महोदय धन्यवादः
अग्रे राम् महोदय भवान् पठति वा
अस्तु महोदय पक्षिणः वृक्षे उभयविषय
उपविश्य
उभयविश्य फलानि
उपविश्य
उपविश्य सारि उपविश्य फलानि खादन्ति कदाचित् मर्कटाः अपि आगत्य येषु पतितानि फलानि सारि येषु वृक्षेषु उपविशन्ति ते फलानि खादन्ति पत्राणि पुष्पाणि च रोटयन्ति विद्यालयस्य परिचारकाः रक्षकाः च अद्यः अधः पतितानि फलानि गृहं नयन्ति मह्यम् आम्रम् आम्लकं च इति द्वे फले कमलं पाटलं च इति द्वे पुष्पे च अतीव रोचते रोचेते अत एव अवसरे प्राप्ते अहं ते एव फले ते एव पुष्पे च उद्यानात् चिनोमि परन्तु रक्षकाः मां तस्मात् आवरणात् निवारयन्ति
अस्तु समीचीनम् आचरणात् आवरणात्
आचरणात् निवारयन्ति अस्तु महोदय
मकार एव भासते चकार अस्ति अस्तु पक्षिणः वृक्षे उपविश्य फलानि खादन्ति कदाचित् मर्कटाः अपि आगत्य येषु मर्कटः इति वानरः मर्कटाः अपि आगत्य येषु वृक्षेषु उपविशन्ति ते फलानि खादन्ति पत्राणि पुष्पाणि च त्रोटयन्ति त्रोटयन्ति इत्युक्ते प्लक् अण्ड् त्रो प्लक् इति वदामः अथवा ब्रेक् इति ब्रेक् इत्यस्मिन् अर्थे अपि त्रोटयति पदं प्रयोगं कर्तुं शक्नुमः विद्यालयस्य परिचारकाः सर्वञ्च रक्षकाश्च अधः पतानि फलानि गृहं नयन्ति मह्यम् आम्रम् आमलकं च इति चेति द्वे फले कमलं पाटलं च इति द्वे पुष्पे च अतीव रोचते रोचेते अतः एव अवसरे प्राप्ते अहं ते एव फले ते एव पुष्पे च उद्यानात् चिनोमि परन्तु रक्षकाः मां तस्मात् आचरणात् निवारयन्ति अस्तु पक्षिणः इत्युक्ते खगाः खगाः वृक्षे उपविशन्ति उपविश्य फलानि खादन्ति अस्तु अत्र सन्देहः अस्ति वा अस्तु तर्हि
महोदय पक्षिणः पक्षिन्
पक्षिन् प्रातिपदिकं प्रातिपदिकं पक्षिन्
धन्यवादः
खगाः गीता देवन भगिनी अत्र खगाः किं कुर्वन्ति उपवने खगाः
वृक्षे उपविश्य फलानि खादन्ति
उपविश्य फलानि खादन्ति मर्कटाः किं कुर्वन्ति
मर्कटाः फलानि खादन्ति पत्राणि पुष्पाणि च त्रोटयन्ति
त्रोटयन्ति अस्तु समीचीनं
महोदय पक्षिणः बहुवचनं वा
पक्षी पक्षिणो पक्षिणः पक्षिणो पक्षिणः
धन्यवादः
अस्तु इदानीं
महोदय पक्षी ईकारान्त ईकारान्त
नकारान्तः पुल्लिङ्गः पक्षिशब्दः पक्षः अस्य अस्ति इति पक्षी वन् दट् हेस् विङ्ग्स्
पक्षी विल् बि ई ओर्
ई पक्षिन् इति प्रातिपदिकं ह्रस्व ईकारः प्रातिपदिकम् अत्र पक्षिन् इति प्रातिपदिकं नकारान्तः तु अत्र ईकारः एव ह्रस्व ईकारः श्रूयते तु प्रथमविभक्ति एकवचने पक्षी इति भवति दीर्घ ईकारः भवति पक्षेण उपविश्य अस्तु त्रोटयन्ति अस्तु अत्र फलानि पत्राणि पुष्पाणि इति कीदृशरूपं भगिनि
फलानि पत्राणि पुष्पाणि बहुवचनरूपं नपुंसकलिङ्ग बहुवचनरूपम्
एवं वदति चेत् पूर्णदेव वदतु
प्रातिपदिकं फलशब्द बहुवचनम्
अन्तः कः प्रथमम् अन्तः
मकारान्त
नकारान्तः वा
मम फलं शब्दः बहु
न अन्तः कः वदतु अकारान्तः मकारान्तः न अकारान्तः
अकारान्तः नपुंसकलिङ्गशब्दः बहुवचनरूपं फलशब्दः
विभक्ति तदनन्तरं वचनं
प्रथमा विभक्ति बहुवचनरूपं फलानि
फलानि पुष्पाणि पत्राणि प्रथमविभक्ति बहुवचनं वा फलानि पुष्पाणि पत्राणि त्रोटयन्ति. द्वितीयविभक्ति बहुवचनम् अस्तु. विद्यालयस्य परिचारकाः रक्षकाश्च अधः पतानि पदानि. शोर्म महोदय अस्ति वा न खलु? अस्तु अनन्तरम् अस्तु दीपक् महोदय. भवते किं रोचते?
मत्स्यम् आम्रम् आमलकम् इति द्वे फले तथा कमलं पाटलम् इति द्वे पुष्पे रोचते.
रोचेते इति भवति.
रोचेते रोचेते इति
रोचेते रोचेते रोचन्ते. अत्र द्वे फले इति द्वे फले रोचेते. द्वे पुष्पे रोचेते. कमलं पाटलं रोचेते. आम्रम् आमलकं रोचेते. मह्यम् आम्रं रोचते अथवा मह्यम् एतानि रोचन्ते. आम्रम् आमलकं कमलं पाटलं च रोचन्ते. अत एव ते एव फले ते एव पुष्पे चिनोमि. अस्तु उद्यानात् किं चिनोति भवान्?
उद्यानात् अहं फले ते फले तथा ते एव पुष्पे उद्यानात् चिनोमि.
ते फले ते पुष्पे इति वदति चेत् अहं न जानामि.
पुष्पं च फलं च चिनोमि.
आम्रम् आम्लकं कमलं पाटलं च
कमलं पाटलम् इति
च चिनोमि.
चिनोमि
अवसरे प्राप्ते. अवसरे प्राप्ते अहं चिनोमि. अहम् अवसरं प्राप्नोमि तदा अहम् आम्रम् आमलकं कमलं पाटलं च चिनोमि इति वदामः.
आम्रम् आमलकं कमलं पाटलं च
उद्यानात् चिनोमि. परन्तु रक्षकाः मां तस्मात् आचरणात् निवारयन्ति. अस्तु ज्योत्स्ना भगिनि धन्यवादः महोदय.
धन्यवादः.
हरिः
ओं महोदय. भवती किं करोति उद्यानात्? भवती गृहं गच्छति. भवत्याः हस्ते फलानि सन्ति पुष्पाणि सन्ति. माता पृच्छति कुतः भवती आनीतवती इति. तदा किम् उत्तरं वदति? बुद्धं वा प्रश्नः?
क्षमतां महोदय. अधुना अन्तः
कुतः भवती आनीतवती पुष्पाणि फलानि कुतः आनीतवती इति माता पृच्छति, तदा किम् उत्तरं भवती दास्यति?
उद्यानात्।
हा, उद्यानात् आनयामि, उद्यानात्
आनयामि।
कथं भवति? पुष्पाणि फलानि अहम् उद्यानात् आनयामि इति वक्तव्यम्। के फलानां पुष्पाणां चयनं निवारयन्ति? रक्षकाः
फलानि पुष्पाणि
फलानां पुष्पाणां
आचरणात् निवारयन्ति।
फलानां पुष्पाणां चयनं, चयनम् इत्युक्ते कलेक्षन्, चिनोमि इत्यस्मिन् अर्थे चयनम् इति भवति, चिनोमि इत्युक्ते चयनं करोमि, चयनं निवारयन्ति, निवारयन्ति इत्युक्ते प्रिवेण्ट् इति अर्थः, तस्मात् आचरणात् चयनात् निवारयन्ति इति वदामः। अस्तु, शान्तभगिनी भवती पठति वा अग्रे?
अस्तु महोदय। एतस्य उद्यानस्य दक्षिणतः एकः तडागः वर्तते। तस्य तडागस्य वारि अतीव निर्मलं वर्तते। शशाः चिक्रोडाः पक्षिणः च तडाङ्गात् वारि पीत्वा तडागात् वारि पीत्वा सन्तोषम् अनुभवन्ति। वृक्षेषु मधुमक्षिकाः मधुचत्राणि निर्मान्ति। तेषु मधुचक्रेषु प्रचुरं मधु वर्तते। मधुचत्रेषु प्रचुरं मधु वर्तते। उद्यानस्य रक्षकाः तेभ्यः मधु सङ्गृह्य छात्रेभ्यः यच्छन्ति। छात्रेभ्यः यच्छन्ति तदा स्वगृहमपि तथा स्वगृहमपि नयन्ति। अस्मिन् उपवने बहुविधाः वृक्षाः सन्ति। तेषु वृक्षेषु शुष्काणि दारूणि इन्धनयोग्यानि भवन्ति। समीपस्य ग्रामेभ्यः श्रमिकमहिलाः आगत्य अस्मात् उपवनात् दारूणि सङ्गृह्णन्ति। परन्तु विद्यालयस्य परिचारकाः तदर्थं ताभ्यः कुप्यन्ति।
धन्यवादः। एतस्य उद्यानस्य दक्षिणतः वारि गीता वेङ्कट भगिनी निश्रयतु। गीता वेङ्कट भगिनी म्यूट् मध्ये अस्ति। अस्तु प्रभवति भगिनि वारि शब्दं वदतु कीदृशम् उच्चैः वदतु भगिनि
इकारान्तः नपुंसकलिङ्गः वारि शब्दः
रूपाणि वदति वा प्रथमा वदति
वारिणि
न प्रथमा वारि इति नास्ति
वारिणि
अस्तु किं निर्मलं वर्तते
तडागस्य वारि निर्मलं वर्तते
तडागः कुत्र अस्ति
तडागः उद्याने अस्ति उद्यानस्य तडागस्य वारि निर्मलं
बहु प्रश्नः तडागः कुत्र अस्ति
तडाग उद्याने अस्ति
कस्मिन् भागे अस्ति
उद्यानस्य दक्षिणतः अस्ति
दक्षिणभागे अस्ति अस्तु के तडागात् जलं पिबन्ति
शशाः चिक्रोडाः पक्षिणः च तडागात् जलं पिबन्ति
पीत्वा सन्तोषं भवन्ति इति अस्ति पिबन्ति पीत्वा इति पिबन्ति तेषु वृक्षेषु मधुवृक्षिकाः मधुच्छत्राणि मधुच्छत्रम् इत्युक्ते हनिकोम्ब् इति अस्ति मधुच्छत्राणि निर्मान्ति निर्मान्ति अस्तु अत्र वृक्षेषु तेषु मधुच्छत्रेषु प्रचुरं मधु वर्तते अस्तु राम महोदय
अस्तु महोदय
मधुमिक्षकाः किं निर्मान्ति
मधुक्षिकाः मधुच्छत्राणि निर्मान्ति
कुत्र निर्मान्ति वृक्षे निर्मान्ति अस्तु मधुच्छत्रेषु किं वर्तते
मधुच्छत्रेषु प्रचुरं मधु वर्तते
प्रचुरं मधु वर्तते प्रचुरम् इत्युक्ते अधिकं मधु अतिशयेन मधु वर्तते मधु इत्यस्य रूपं किम्
उकारान्तः मधु उकारान्तः पुल् नपुंसकलिङ्गः प्रथमाविभक्तिः एकवचनं
मधुशब्दः
मधुशब्दः प्रथमाविभक्तिः एकवचनं मधु मधु मधूनि मधु मधूनि मधूनि
पुनः वदतु
मधु मधुनि मधूनि
मधु मधुनि मधूनि अस्तु उद्यानस्य अभिवाचेभ्यः मधु सङ्गृह्य छात्रेभ्यः यच्छन्ति तथा स्वगृहं नयन्ति शान्तभगिनी
जी महोदय
मधु मधु सङ्गृह्णन्ति
उद्यानस्य रक्षकाः मधु सङ्गृह्णन्ति
कुतः कुतः सङ्गृह्णन्ति
कुतः मधु छत्रेषु मधु छत्रेत् छत्रात् छत्रात् सङ्गृह्णन्ति
मधु सङ्गृह्णन्ति गृह्णन्ति अस्तु केभ्यः यच्छन्ति
केपि यच्छन्ति शास्त्र छात्रेभ्यः यच्छन्ति
छात्रेभ्यः मधु यच्छन्ति
मधु यच्छन्ति
अस्मिन् निपुणे बहुविधाः वृक्षाः सन्ति तेषु वृक्षेषु वृक्षाणि धारुणि इन्धनयोग्यानि वर्तन्ते दारुणि कीदृशं पदम्
उकारान्तः नपुंसलिङ्गः दारुशब्दः दारूणि प्रथमाविभक्ति बहुवचनं
समीचीनं
दारु दारुणी दारूणि
समीपस्थग्रामेभ्यः समीपमहिलाः आगत्य अस्मात् भवनात् दारुणाद्रिणन्ति शिवगुरुमहोदय अस्तु के दारुणि सङ्गृह्णन्ति काः काः दारुणि सङ्गृह्णन्ति
समीपस्य ग्रामेभ्यः श्रमिकमहिलाः दारुणि सङ्गृह्णन्ति
ग्रामेभ्यः इति कीदृशपदम्
ग्रामः अकारान्तः पुल्लिङ्गः ग्रामशब्दः पञ्चमाविभक्ति बहुवचनं
पञ्चमी विभक्ति बहुवचनं पञ्चमी आगत्य अस्मात् उपवनं कुतः दारुणि सङ्गृह्णन्ति
उपवनात् दारुणि सङ्गृह्णन्ति
उपवनात् दारुणि सङ्गृह्णन्ति परन्तु विद्यालयस्य परिचारकाः तदर्थं तु सम्यक् वदतु महोदय.
महोदय श्रमिका इत्युक्ते
सर्वन् अत्र परन्तु विद्यालयस्य परिचारकाः तदर्थं ताभ्यः ताभ्यः इति कीदृशं ताभ्यः कुप्यन्ति
तकारान्त स्त्रीलिङ्ग स्त्रीलिङ्ग ताभ्यः तकारान्त स्त्रीलिङ्ग
दकारान्तः वा तकारान्तः वा
दकारान्तः पुल्लिङ्ग
पुल्लिङ्ग
न न स्त्रीलिङ्ग 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 प्रातिपदिकं
शब्दः शब्दः कीदृशशब्दः कः शब्दः ताभ्यः कीदृशशब्दः तद् सर्वनामशब्दः तत् शब्दः
पञ्चमविभक्ति बहुवचनं
पञ्चमविभक्ति भवति वा चतुर्थी कुप्यति कुप्यन्ति चतुर्थी
चतुर्थी
द्रुह्यन्ति कुप्यन्ति चतुर्थी अस्तु शिवगुरु महोदय भवान् पठति वा
धन्यवादः
वृक्षाः खलु न केवलं वस्तूनि भवन्ति तेषु प्राणाः अपि भवन्ति इति न केवलं वैदिकं विज्ञानं किन्तु आधुनिकं वनस्पतिविज्ञानम् अपि प्रमाणयति यद्यपि मनुष्यवत् एतेषां रक्षीणि अन्यानि अङ्गानि च न भवन्ति यद्यपि छेदने सति एते मनुष्यवत् अश्रूणि च त्यजन्ति तथापि एते कष्टम् अनुभवन्ति अतः वनस्पतिहिंसा अस्माकं प्राचीनशास्त्रे निषिद्धा अस्ति विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुम् असाम्प्रतम् इति अस्माकं पूर्वजैः सघोषम् उक्तमस्ति
अस्तु धन्यवादः
धन्यवादः
अस्तु वृक्षाः खलु न केवलं वस्तूनि भवन्ति सुन्दर महोदय
आं महोदय
वस्तूनि कीदृशपदम्
वस्तूनि उकारात् नपुंसकलिङ्ग वस्तुशब्दश्च प्रथमाविभक्ति वस्तु वस्तूनि वस्तूनि बहुवचनम्
वृक्षाः न तु केवलं वस्तूनि भवन्ति तेषु प्राणाः अपि भवन्ति इति न केवलं वैद्यः आधुनिकवनस्पतिविज्ञानमपि प्रमाणयति प्रमाण इत्युक्ते प्रू निरूपयन्ति प्रमाणयति यद्यपि मनुष्यवत् तेषाम् अक्षीणी अन्यानि अङ्गानि च न भवन्ति बालराज महोदय
धन्यवादः
अक्षीणी कीदृशी पदम्
ईकारान्तः नपुंसकलिङ्गः अक्षीशब्दस्य प्रथमाविभक्ति बहुवचनम् अक्षी प्रथमा द्विवचनम्
अक्षी अक्षिणी अक्षीणी इदानीम् अक्षीणी इति द्विवचनं वा बहुवचनं बहुवचनम् अन्यानि अङ्गानि च अङ्गानि
अकारान्तः पुल्लिङ्गः
पुल्लिङ्गः वा अङ्गानि
अकारान्तः नपुंसकलिङ्गः अङ्गशब्दस्य बहुवचनं प्रथमाविभक्ति बहुवचनं
प्रथमाविभक्ति बहुवचनं यद्यपि एतेषां च भवन्ति यद्यपि छेदने सति एते मनुष्यवत् अश्रूणि न त्यजन्ति अश्रूणि इति कीदृशं पदम्
उकारान्तः उकारान्तः नपुंसकलिङ्गः अश्रुशब्दस्य प्रथमाविभक्ति बहुवचनम् अश्रु अश्रुणि अश्रूणि
अश्रुणि अश्रूणि
बहुवचनं
त्यजन्ति अस्तु केन त्यजन्ति अश्रूणि न त्यजन्ति कदा न त्यजन्ति केन त्यजन्ति अस्तु अत्र किञ्चित् क्लेशः अस्ति यद्यपि छेदने सति इत्युक्ते यदि छेदनं भवति तदा इति अर्थः छेदनं कुर्मः कस्य छेदनं वृक्षस्य छेदनं वृक्षस्य छेदनं भवति तदा अपि अश्रूणि न त्यजन्ति वृक्षाः अश्रूणि न त्यजन्ति तथापि यद्यपि अश्रूणि न त्यजन्ति तथापि एते कष्टमनुभवन्ति वृक्षाः कष्टम् अनुभवन्ति छेदने वृक्षाः कष्टम् अनुभवन्ति
अश्रूणि
टियर्स्
टियर्स्
अश्रु
भवती त्यजन्ति अर्थं फ्लो
त्यजन्ति इत्युक्ते अत्र प्रयोगः एवमस्ति संस्कृते गिवप् इति अर्थे बेसिकलि स्रवति अश्रुणि स्रवति अश्रुणि स्रवति इति अर्थः त्यजन्ति अश्रुणि श्रवन्ति 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 न श्रवन्ति श्रवन्ति अस्तु अतः वनस्पतिसंहिता अस्माकं प्राचीनशास्त्रे निषिद्धा अस्ति विषवृक्षोऽपि सम्बध्य स्वयं चेतुम् असम्प्रतम् असम्प्रतं च अयोग्यं न उचितम् इत्यर्थः चेतुं न उचितं वृषवृक्षः वृषवृक्षः अपि यद्यपि वृक्षः विषयुक्तः अस्ति विषयुक्तः अस्ति तथापि तस्य संवर्धनं कृत्वा संवर्ध्य इत्युक्ते वर्धाप्य स्वयं तस्य चेतनम् असम्प्रतम् इत्युक्ते अनुचितं तस्य चेतनं मा कुरु इति अस्माकं पूर्वजैः सघोषम् उक्तमस्ति सघोषम् उक्तमस्ति घोषितवन्तः इति वृक्षचेतनं मा कुरु अस्तु अग्रे बालराज महोदय पठति वा
यदा वृक्षेण वचनेन वृक्षचेतनसुवृद्धिः सर्वथा निषिद्धा वर्तते आधुनिकाः अपि वृक्षचेतनं न प्रोत्साहयन्ति वनेषु उपवनेषु च अनावश्यकं वृक्षचेतनं शासनेन निषिद्धमस्ति अस्मिन् प्रसङ्गे अस्माकं प्राचीनपरम्परायां अपरा अपि काचन विशिष्टा सूक्तिः प्रसिद्धा वर्तते पुष्पं पुष्पं विचिन्वीत बहुलच्छेदं न कारयेत् इति एतादृशी सूक्तिं वयं जीवने अवधारयामः चेत् वृक्षचेतनं न भविष्यति तेन पर्यावरणं सन्तुलितं स्वच्छं च स्थास्यति
माला भगिनी
धन्यवादः
महोदय बिबेमि
अस्तु केन प्रमाणेन वृक्षच्छेदनं निषिद्धा भवति
केन प्रम पूर्वजैः वन्दनत वेरि पर्सेण्ट् केन प्रमाणेन वन्दनत वेरि टु मेनि थिङ्ग्स् अस्माकं पूर्वजैः सङ्गोषम् उक्तम् अस्ति एतादृश दृश्येन वचनेन वृक्षछेदनं प्रवृत्ति सर्वथा निषिद्धा वर्तते आधुनिकाः केन प्रमाणेन पूर्वजैः अस्माकं पूर्वजैः
पूर्वजैः उक्तप्रमाणेन वृक्षो विषवृक्षोऽपि संवर्ध्य स्वयं चेतम् असाम्प्रतम् इति प्रमाणेन सर्वथा निषिद्धा वर्तते वृक्षछेदनं प्रवर्तते अस्माकं प्राचीनविशिष्टासक्तिः अस्ति पुष्पं दृष्ट्वा विचिन्वीत मूलच्छेदनं न कारयेत् पुष्पं पुष्पं विचिन्वीत इत्युक्ते पुष्पं स्वीकरोतु तत्र दोषः नास्ति तु मूलस्य छेदनं मूलच्छेदनं मूलस्य छेदनं मा कुरु इति न कारयेत् एतादृशीं सूक्तिं वयं जीवने अवतारयामः अवतारयामः इत्युक्ते पालयामः चेत् वृक्षच्छेदनं न भविष्यति तेन पर्यावरणं सन्तुलितं स्वच्छं च स्थास्यति अस्तु कथं पर्यावरणं सन्तुलितं स्वच्छं च भवति भवितुम् अर्हति
मूलच्छेदनं सुप्तिं वयं जीवने अवतारयामः चेत् वृक्षछेदनं न भविष्यति तत्कारणेन पर्यावरणं सन्तुलितं भवति
मूलच्छेदनं निवारयामः इत्युक्ते मूलच्छेदनं न कुर्मः तदा वृक्षाः भवन्ति तेषां तेन कारणेन पर्यावरणं सन्तुलितं स्वच्छं च भवति इति अपि वदामः समीचीनमेव भवति प्रसङ्गे प्राचीनप्राधुनिक अस्तु आधुनिकविज्ञानकैः विज्ञानैः विज्ञानिकैः वृक्षछेदनम् अङ्गीकुर्वन्ति वा अङ्गीक्रियन्ते वा
छेदनं क्रियते वा
अङ्गीकुर्वन्ति न प्रोत्साहयन्ति इति न अङ्गीकुर्वन्ति इति अर्थः अङ्गीक्रियते अस्तु एकक्षणम् अस्तु एतादृशीं सूक्तिं वयं जीवने अवतारयामः चेत् वृक्षच्छेदनं न भवति अस्मिन् वाक्ये तेन पर्यावरणं सन्तुलितं सत्यं च स्थास्यति अस्तु एतद् वाक्यद्वयं स्वीकरोतु एकं प्रश्नवाक्यं रचयतु
एतादृशी कीदृशी सुप्तिं वयं जीवने अवतारयामः चेत् वृक्षछेदनं न भविष्यति कीदृशी समीचीनं वा
सर्व उत्तरम् एतादृशी इति
एतादृशी शक्ति वयं जीवने आर् यु केन् से वयं जीवने किम् अवतारयामः
वृक्षचेतनं न भवितुं किं कुर्मः किं कुर्मः छेदनस्य निवारणार्थं किं कुर्मः अनन्तरं स पर्यावरणसन्तुलितां स्वच्छं स्थातुं किं कुर्मः इति अपि वक्तुं शक्नुमः अस्तु समीचीनमेव
जय गुरुदेव
अस्तु तर्हि अत्र सन्देहः अस्ति वा सन्देहः अस्ति वा कस्यापि
महोदय अत्र एकमेव प्रश्नं कर्तुं भवितुमर्हति
बहुविधप्रश्नाः भवितुम् अर्हति एकं पदस्य प्रश्नः भवितुम् अर्हति
न अत्र अस्ति पक्षिणः वृक्षे उपविश्य फलानि खादन्ति के
फलानि
के कुत्र उपविश्य किं खादन्ति
प्रत्येकम् एकैकं पदं स्वीकृत्य
वन् क्वश्चन् ओन्लि यु केन् आस्क् एन् आन्सर् आल् आर् इस् इट् दट् यु हेव् टु आस्क् क्वश्चन् सेपरेट्लि
तदा किं भवति
उपविश्य कुत्र
वाक्यं यत् अस्ति तदेव पठनीयं भवति
धन्यवादः
एवं पृच्छति चेत् अस्तु के कुत्र किं तदा भ्रमः
महोदय उक्तवान् के कुत्र किं कदा
तद् पृथक् पृथक् प्रष्टव्यम् एकस्मिन् प्रश्ने एव सर्वं पृच्छामश्चेत् श्रोतॄणां भ्रमः भवति अस्तु अत्र अहं किम् अग्रे किं कर्तुम् इच्छामि इति चेत् व्योमा संस्कृतिल इति अस्ति खलु व्योमा संस्कृतपाठशाला अत्र एतेषां किम् अभवत् तत्र शेर् कर्तुं न शक्नोमि शेर् कर्तुं न शक्नोमि किम् अभवत् एकक्षणम् अस्तु वर्गं समापयामि सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः शान्ति।